गणपतिगं भवामहे कविं कवीनां ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पतानशृण्वन्नो जगस्त्रीदसादनम् ॐ महागणपतये नमः शञ्च मे वजश्च मे प्रियं च मे नृपामश्च मे कामश्च मे यौवनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे मघश्च मे द्रविडं च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे शीलं च मे गजश्च मर्दं च मे मृतं च मे यक्ष्मं च मे नामयज्ञ मे ईवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सोढा च मे सुयिनं च मे ॐ नमो भगवते रुद्राय नमस्ते रुद्रमन्यपुतो दरिषभे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुदते नमः जातरिषशिवतमा शिवं बभूमते धनुः शिवा च दव्या जातवतया नो रुद्रमृणया जाते रुद्रशिवा तनोरघोरापापकारिणी प्रजानस्तनुभाषन्तपजाकिति सन्ताभिजागशीः यामिषं किलि सन्तहस्ते विभक्तस्तवे शिवाङ्गिर्ददां कुरु वाहिकं श्रीपुरुषं जगत् शिवे नवचसात्पायुदिशाच्छावदामसि यथा नः सर्वमिज्जगदयक्ष्मं सुमना असत् अध्यभो जदधिभक्ता प्रथमो दीर्घोऽभिषगे अहीभिश्च सर्वाञ्जं भजन् सर्वाश्च जातु धान्यः असौ यस्ताम्रो अरुणमुदभ्रस्तु मङ्गलः ये चे मागुं रुद्रा अभितो दिक्षुश्रिता सहस्रजो वैशागुं रेद धीमहि असौ यो वसर्पतिरेणग्रीभो विलोकितः उदैनं गोपादृशन्नदृशन्नुदहार्यः उदैनं विश्वभूतानि सदृष्टो वृढजातिनः नमोऽस्तु नीलग्रीवाय सहस्राक्षाय पीडुषेः असो ये अस्य तत्त्वा नोहन्तेभ्यो नमः प्रपञ्चधन्मतस्त्वमुभयोगाभियोज्याम् राज्यदेहस्तरिषभपदान्ता भगवो वप अवतत्यतमुष्पकं सहस्राक्षजते हृदे निषेव्यतल्यानां मुखा शिवो नः सुमना भव विद्यं धनुष्कपद्यनो विशल्यो बाणवागुं कृता अनेशन्नस्येतव आहुलस्य निषङ्गतिः या देहे जन्मे दुष्टमहस्ते बभूवते धनुः सजास्मानि विश्वतस्त्वमयक्ष्मजा परिग्भुजा नमस्ते अस्त्वायुधाजानादताय दृष्टवेः उभाभ्यामुदते नमो बाहुभ्यां तव धन्वने पतिते धन्वनो हेतिरस्मान् ऋणक्तु विश्वतः असो जगिषुजिस्तवादे अस्मन्निधेहितम्